नमस्सर्वेभ्यः अद्य विभक्तिवर्गे एकविंशः पाठः मे मासस्य एकविंशः दिनाङ्कः रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमूः रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो Excuse me for one moment, please. षष्ठीविभक्तिम् अधीयानाः स्मः षष्ठीविभक्तिः प्राधान्येन द्वयोः पदार्थयोः सम्बन्धं बोधयति सो षष्ठीविभक्ति इस् एन् इण्डिकेटर् आफ् सम्बन्ध रिलेशन् एनी कैण्ड् आफ् रिलेशन् बिट्वीन् टु आब्जेक्ट्स् एनी टु पदार्थस् So there are different kinds of sambandhas. Sambandhaha bahuvidhaha. Mama pustakam, my book. So that is a relation where one thing belongs to the other or one owns the other. Sva swami bhavaha sambandhaha. Mama hastaha, my hand. So the relation between an organism and its organs. Avayava, avayavi bhavaha or a whole and parts, etc. Mama putri, my daughter, or mama mata. So we say one is born of the other. So janya janaka bhavaha. Mama deshaha, so my country. So we are talking about a different kind of relation where it is a location or the place of birth or something. So there are so many different kinds of sambandhas. All of them are conveyed by Shashti Vibhakti. Shashti Vibhaktehe Ekavachanasya Rupanyapi Drishtani Pullingasya Balakasya Balikayaha Naryaha Mitrasya Ityevam ఏకవచనాంతాని రూపాణి భవంతి. అస్మిన్ అభ్యాసే పదద్వయం అస్తి. పదద్వయస్య షష్ఠీ విభక్తిం ఉపయోజ్య సంబంధః కల్పనీయః. యతా యథా ఛాత్రః శాలా, ఛాత్రస్య శాలా. తథైవ ఏకం వాక్యమపి రచనీయం తత్ పదద్వయం ఉపయోజ్య. యథా ఛాత్రస్య శాలా సమీపే అస్తి. షష్ఠీ విభక్తిః ఉపయోక్తవ్యా, విభక్తిం ఉపయోజ్య ఏకం వాక్యం చ రచనీయం. సో ప్లీజ్ రేజ్ యువర్ హ్యాండ్. రావ్ మహోదయ,
can you hear me?
Yes.
Okay. Balakasya pustakam tasya haste asti.
Balakasya pustakam tasya haste asti.
Girijayaha mandiram samipe asti.
Samip. Dhanyavadah. Next. Shridhar.
नार्याः शाटिका नूतनमस्ति.
नूतना अस्ति. नार्याः शाटिका नूतना अस्ति.
नार्याः शाटिका नूतना अस्ति. गृहस्य उद्यानं सुन्दरमस्ति.
सुन्दरमस्ति. गीता आई थिंक यू म्यूटेड योर सेल्फ. यू हैव टू क्लिक ऑन द माइक्रोफोन टू अनम्यूट.
या आई डिड. पृथ्व्याः पृथ्व्याः जनाः जनाः
क्षम्यताम्.
सर्वमस्ति.
कः कः विवक्ष? व्हाट डू यू मीन टू से? द पीपल ऑफ द अर्थ
आर एवरीवेयर.
सर्वत्र
सन्ति. सर्वत्र सन्ति. सर्वत्र सन्ति. या महाराजस्य रथः अति सुन्दरम् अस्ति.
अति सुन्दरः अस्ति. महाराजस्य रथः अति सुन्दरः.
अति सुन्दरः अस्ति. ओके. एडजेक्टिव.
यस. सम्यक्. बालचन्द्रन् महोदय.
गजस्य कर्णौ कृष्णौ अस्ति.
कृष्णौ स्तः. गजस्य कर्णौ कृष्णौ स्तः.
कृष्णौ स्तः. बालिकायाः माता बालिकायाः माता सुन्दरम् अस्ति.
सुन्दरी अस्ति.
सुन्दरी
माता सुन्दरी अस्ति. लक्ष्मी.
नद्याः जलं शुद्धम् अस्ति
शुद्धम् अस्ति नद्याः जलं शुद्धम् अस्ति
शुद्धम् अस्ति मित्रस्य वस्त्राणि मलिनानि सन्ति
मलिनानि सन्ति मित्रस्य वस्त्राणि मलिनानि सन्ति पॉल
राजकुमार्याः आभरणं सुन्दरी अस्ति
आभरणं सुन्दरम् अस्ति राजकुमार्याः आभरणं सुन्दरम् अस्ति
मिथिलायाः महाराजः मिथिलायाः महाराजः बृहत् अस्ति
महाराजः द किङ्ग्
राइट
द किङ्ग् इज़ बिग्
ओ आई एम थिंकिंग ऑफ इट द रॉन्ग वे ओके
यस यू कैन ट्राई आई मीन देयर इज नथिंग दिस वन मिथिलायाः महाराजः गच्छति आगच्छति और व्हाटएवर आई मीन That's one.
Oh, I see. Mithilayaha Maharajaha Gachati?
Gachati, yes. Mithilayaha Maharajaha Gachati. Yes. So, thank you, Paul. So, if you have noticed in most of the sentences, what we did was made it an adjective senaryah shatika sundari asti nadyah jalam shuddham asti mitrasya vastrani malinani that is one way so now we will take the same words and construct sentences in different vibhaktis say for example balakah pustakam balakasya pustakam aham swikaromi okay so where the pustakam is a karma right balakasya pustakam aham swikaromi or something like girijayaha mandiram janaha gacchanti okay so extended sentences using these sentences say shukravasare bahavaha janaha girijayaha mandiram gacchanti okay so something like this extended sentences using the same words okay so just to since we have come to shashti vibhakti it should be possible to get into slightly bigger sentences okay so we'll just give it a try so venkateshwaran mahoday
balakasya pustakam अहं पठामि गिरिजायाः मन्दिरं अहं
शनिवासरे गच्छामि अहं शनिवासरे गिरिजायाः मन्दिरं गच्छामि सम्यक् सो प्लीज रेज योर हैंड्स एंड वॉलंटियर पद्मनाभन
नार्याः शाटिकां मया दृष्टं दृष्टा
नार्याः शाटिका मया दृष्टा सम्यक्
गृहस्य उद्यानं गच्छामि
अहं गृहस्य उद्यानं गच्छामि सम्यक्
Good enough.
I mean anything which is grammatically correct is fine
it's just good enough yes. Okay. I'll try one more if you want
sorry
I'll try one more if you want you know
Yeah. Anybody else wants to try Sridhar Mahalaya
Namaste पृथिव्याः जनाः दुःखिताः दुःखिताः सन्ति
पृथिव्याः जनाः दुःखिताः सन्ति ओके
महाराजस्य रथः बृहत् अस्ति
Use something else, I mean other than use it, can you use it in a different
Maharashtya ratha no ratham pashyami
aham maharajasya ratham pashyami samyak okay rao
yes sir गजस्य कर्णौ बृहत् भवन्ति
बृहतौ भवन्ति और विशालौ भवतः
विशालौ
गजस्य कर्णौ विशालौ भवतः
बालकायाः माता ओदनं पचति
पचति बालिकायाः माता ओदनं पचति Others would like to try? Those who have not tried so far? Geeta?
Yeah, Nadia, Nadia, Jalam, Pibati.
Aham.
नद्याः जलं पिबति
अहं पिबामि
ओ सारी पिबामि अहं नद्याः जलं पिबामि मित्रस्य वस्त्राणि मित्रस्य वस्त्राणि बहिः अस्ति
वस्त्राणि बहुवचनं
बहुवस्त्राणि
अस्ति स्तः सन्ति
ओ
वस्त्राणि बहिः सन्ति कस्मात् बहिः
उद्याने
From where? Out of? Outside the?
Udyane?
Now, outside the garden or they are in the garden outside the house?
Outside the garden. Outside in the garden.
So, Udyanat Bahihi.
Oh, okay.
Panchami Bahihi.
Okay. Mitrasya vastrani. Udyanat bahihi santi.
Samik. Very good. Dhanya.
Rajakumaryaha avaranam. Choraha Rajakumaryaha avaranam chorayati.
Chorayati, samyak. So that was one sentence I was thinking of myself.
Mithilayaha Maharajaha Janakaha Asti.
Janakaha Sahakaha Janakaha Asit. Samyak. Mithilayaha Maharajaha Janakaha Asit. Or I mean you can extend it further. Mithilayaha Maharajaha Janakaha Sitayaha Pita. So on. I mean you can go on, of course. So अग्रे गच्छामः अन्येषु वचनेषु षष्ठी विभक्तेः रूपाणि बालकस्य बालकयोः बालकानां बालिकायाः बालिकयोः बालिकानां नार्याः नार्योः नारीणां मित्रस्य मित्रयोः मित्राणाम् अत्र नकारः अस्ति बहुवचने यदि रेफः अस्ति अथवा षकारः अस्ति तर्हि तस्य णत्वं भवितुम् अर्हति सो ऐ थिंक वी हैव डिस्कस्ड द रूल समवेयर सो फॉर नकार सो इफ द सेम वर्ड हैज द लेटर्स रेफ और षकार से पुष्प पुष्पाणाम सो इन तृतीय आल्सो वी हैड द सेम से पुष्पेण Mitrena, etc. So, if there is Repha or Shakara and the intervening letters. So, the first rule or the basic rule is the presence of Repha or Shakara. In addition, if the intervening letters are vowels, Swaraha or Kavarga Pavarga letters, either vowels or the letters of Kavarga Pavarga, then the Na changes to Na. Okay, so we have to be careful about where to use na and where to use na. Iranim asmin abhyase shashti vibhaktehe rupam rupani vadamaha tathaiva ekam vakyam using any vachana. Okay, so there are three vachanas. You can create one sentence using minimum one sentence using that word. Okay, so more than one, of course, always welcome. So people who would like to try, please raise your hands. Padmanabhan, all right.
Himalaya, Bahavaha Parvataha, Drashtaha.
Parvata, first Shashti Vibhakti, forms of Parvata.
Himalaya Parvatanam.
Himalaya Parvate, it would be better because in the Himalayas, right? So,
okay.
First give me the forms of the Parvataha, Shashti Vibhakta Rupani.
Okay. Parvatasya, Parvatayoho, Parvatanam.
Parvatasya, Parvatayoho, Parvatanam.
Okay. And then using Shashti, Parvatanam,
keep it simple.
Yeah, Everest.
Ah.
Go ahead.
No, no. Yes.
Parvatanam.
एवरेस्ट् पर्वतः
अति उन्नतः
अत्युन्नतः पर्वतानां दट् इस् अमङ्ग् द मौण्टेन्स् एवरेस्ट् पर्वतः अति उन्नतः सो पर्वतस्य नाम हिमालयः सो इट्स् आल्सो आप्शन् सो फैन् सो नदी षष्ठी विभक्तिरूपाणि
ओके नद्याः नद्योः नदीनां कावेरी नद्याः जलं न अस्ति
नद्याः जलं शुष्कं
ग्रीष्मसमये जलं न अस्ति
कावेरी नद्याम् अगेन् सप्तमी मैट् बि बेटर् बिकास् इन् द रिवर्
टु से इट् डस् नाट् हेव् षष्ठी इस् यूस्ड् रैट्
कावेरी नद्याः जलं नास्ति ओके Yes, you can use it. See, the convenience with Shashti is you can use it in most of the places. So, it's fine. Yes. Prayage Ganga Yamuna Nadyoh Sangamah Bhavati. Right? So, that is one this thing. So, you can use. So, next. Others who would like to try? Please try. It's fine if it is. I know it is a bit... challenging to come up with sentences, but it is fine if you are wrong. It's perfectly fine. Shakha. Geeta.
Shakha naam. शाखस्य उपरि
शाखायाः
सोरि शाखायाः उपरि कपिः तिष्ठति
उत्तमं शाखायाः उपरि कपिः तिष्ठति
क्षेत्राणां क्षेत्रस्य नाम बेङ्गलूरु
क्षेत्रस्य नाम बेङ्गलूरु क्षेत्रम् इति शब्दस्य फील्ड्स् इत्यपि अर्थः अस्ति सो कृषकः क्षेत्राणां कर्षणं करोति सो द फार्मर् प्लोस् द फील्ड्स् मेघः पाल् डु लैक् टु ट्रै
मेघस्य तयोः मेघानां मेघानां कृष्णः अस्ति
मेघानां वर्णः कृष्णः अस्ति
मेघानां वर्णानां कृष्णः अस्ति
वर्णः कृष्णः अस्ति द कलर् आफ् ब्लाक् क्लौड्स् इस् ब्लाक् मेघानां वर्णः कृष्णः
वर्णः अस्ति
पृथिवीनां
Yeah.
Yes. Vakyam.
Prithivinam. It's hard for me to think out.
It's not. No, you can try anything. Say, for example, Chandraha Prithivyaha Pradakshinam Karoti. The moon goes around the earth.
Uh-huh. But then you're not going to do this in plural then.
Sorry?
But you want this in the plural form.
Not necessarily. Any vachana will do.
Oh, I thought you wanted
no.
Not like it is an excuse, but still. Okay. Yeah, you want anything?
So next we'll move on. It's Dhanya.
Gangayaha Gangayoho Ganganam.
Gangayaha Gangayoho Ganganam.
Gangayaha Gangayoho Ganganam. Gangayaha Jalam Pavitram Asti.
Gangayaha Jalam Pavitram Asti.
Sasyam, what is sasyam?
Sasyam, a plant.
Sasyasya, sasyayoho, sasyanam. Sasyasya, nama, kadali.
Kadali, sasyasya, nama, kadali, samyak. Next, others. Please raise your hands, or I myself will have to choose somebody. Sharada. Sharada. Bhagini.
Namaste, Bhagini.
Vrikshaha.
Vrikshaha upayujya, shashti vibhakti upayujya vatiyani.
Adav rupani, shashti vibhaktehe rupani.
Vrikshasya, vrikshayoho, vrikshanam.
Vrikshasya, vrikshayoho, vrikshanam. Ekam vakyam.
Vrikshasya nama narikela vrikshaha.
Vrikshasya nama narikela vrikshaha. Yes.
Griham ubhayataha narikela vrikshau staha.
Samyak. Griham ubhayataha narikela vrikshau staha.
Vrikshanam. Chennai nagaram paritaha vrikshanam sankhya nyuna asti.
Bahu samyak. Chennai nagaram paritaha athava Chennai nagare vrikshanam sankhya nyuna asti. Very good. Next.
Phalam phalasya phalayoho phalanam. Palasya nama amra phalam.
ఫలస్య నామ ఆమ్రఫలం.
ఆమ్రఫలయో రుచి మధురం సహ
మధురా అస్తి. ఆమ్రఫలయో రుచి మధురా అస్తి.
అత్ర మధురా ఇది విశేషణరూపేణ కథం?
రుచి రుచేః విశేషణం కిల, రుచి మధురా, ద టేస్ట్ ఈస్ స్వీట్.
You're
directly saying amraphale madhure staha or amraphalam madhuram asti. So,
amraphalayoho ruchihi madhura asti. Asmin mase amraphalanam vikreta
vikrayanam సమ్యక్ చలతి. సమ్యక్ ఉత్తమం. అస్మిన్ మాసే ఆమ్రఫలానాం విక్రయణం సమ్యక్ చలతి. బహు ఉత్తమం. వెంకటేశ్వరన్ నగరీణాం
మమ నగరీ మమ నగర్యాః నామ చెన్నై.
నామ చెన్నై. మమ నగర్యాః నామ చెన్నై. సమ్యక్. ఎస్.
మమ నగర్యాః lot of cars, lot of vehicles nagadiyah.
Bahuni
vahanani
nagadiyah santi or nagaryam, both. In my city would mean mama nagaryam or mama nagaryah. Yes. Oh, sorry, there's one more word.
Janah janasya janayoho jananam. బహువిధం సమస్యా అస్తి
సంతి.
సమస్యా
సంతి. జనస్య అథవా జనానాం బహువిధాః సమస్యాః సంతి. సమ్యక్. అదర్స్ హు హావ్ నాట్ ట్రైడ్ సో ఫార్, ప్లీజ్. శివరాం కులకర్ణి.
లేఖన్యాః లేఖన్యోః లేఖనీనాం. లేఖన్యాః వర్ణం శ్వేతం అస్తి.
వర్ణః
శ్వేతః అస్తి.
లేఖన్యాః వర్ణః శ్వేతః
అస్తి. లేఖన్యానాం
లేఖనీనాం
లేఖనీనాం ఏకా లేఖనీ మమ అస్తి.
లేఖనీనాం ఏకా లేఖనీ మమ.
ఏకా లేఖనీ మమ అస్తి. పుస్తకం పుస్తకస్య పుస్తకయోః పుస్తకానాం. పుస్తకస్య నామ
నామ
గీత నామ గీత అస్తి.
पुस्तकस्य नाम गीता अस्ति.
गीता अस्ति. पुस्तकानां गीता ग्रन्थः श्रेष्ठः अस्ति.
पुस्तकानां गीता ग्रन्थः श्रेष्ठः
श्रेष्ठः
सम्यक्. श्रीधर
पत्रिकायाः पत्रिकयोः पत्रिकाणां पत्रिकाणां विक्रयणं नगरे प्रचलति.
पत्रिकाणां विक्रयणं नगरे प्रचलति. सम्यक्.
अध्यापकस्य अध्यापकयोः अध्यापकानां अध्यापकानां सौम्य श्रेष्ठ
शिशु न अस्तु. वाक्यं शब्दत्वेन शुद्धम् अर्थत्वेन. ओके थैंक यू. अदर्स प्लीज और आई विल चूज इफ यू डोंट वॉलंटियर. Those who have not tried so far, please. Sharada, Gopalan.
Mate. Hastah, hastayoho, hastanam.
Hastasya.
Hastasya, hastayoho, hastanam. राजा दशरथः हस्तयोः बहु धनं यच्छति.
हस्तयोः हस्ताभ्यां विथ हिज हैंड्स राइट. हस्ताभ्यां बहु धनं यच्छति. यू कैन से दशरथस्य हस्तयोः बहु धनम् अस्ति. दशरथस्य हस्तयोः बहु धनम् अस्ति.
उदरयोः उदराणाम् यदि बहिः खादामः चेत् उदराणां वेदना शीघ्रम् आगच्छति.
उदरस्य वेदना इस् फैन् सो स्टमक् पेन् सो उदरस्य वेदना शीघ्रम् आगच्छति. सम्यक्. बहिः खादामः चेत् उदरस्य वेदना शीघ्रम् आगच्छति. सम्यक्. बालचंद्रन why am I not able to unmute you? Paul, can you please try to unmute Balachandran Mahode? I am unable to unmute him.
Something, it doesn't go green. Well, now it is.
Jihvayaha. Jihvayaha. जिह्वयोः जिह्वानाम्
एकं वाक्यम्
अहं जिह्वायाः भोजनं करोमि.
जिह्वया भोजनं करोमि.
भोजनं करोमि.
सम्यक् षष्ठी जिह्वायाः नियन्त्रणं कर्तव्यम् कण्ट्रोल् टङ् ऐ मीन् जस्ट् एज़् अ साम्पल्
Shall I continue?
Yes, Anguli.
Anguli, Anguliyaha. Anguliyaha. Angulibhyam.
Anguliyoho.
Anguliyoho, Angulina. Angulina. Anguliyaha. अंगुल्याः मम अंगुल्याः
श्रुतं न श्रुतं मम अंगुल्याः
मम अङ्गुल्याः लिखामि
अङ्गुल्या अङ्गुलीभ्यां लिखामि अगेन् अङ्गुली इस् इन्स्ट्रुमेण्टल् इन् रैटिङ्ग् रैट् सो अङ्गुल्या लिखामि और् अङ्गुलीभ्यां लिखामि अङ्गुल्याः से अङ्गुलीनां संख्या कति हस्ते अङ्गुलीनां संख्या
हस्ते संख्या
हौ मेनि
दशम्
दश हस्तयोः अङ्गुलीनां
दश सन्ति
धन्यवादाः नेक्स्ट् अदर्स् राव्
रामस्य रामयोः रामाणां रामस्य चतुरः भ्राता सन्ति
कति
रामस्य चतुरः भ्राता सन्ति
चत्वारः भ्रातरः सन्ति इति शुद्धं किन्तु रामस्य चत्वारः भ्रातरः वा
चत्वारः भ्रातराः रैट् भ्रातरः सन्ति
कति भ्रातरः रामस्य
four brothers right
Rama had four brothers no
with himself counted
no so he is not counted so ramasya trayah bhrataraha
okay
ramasya trayah bhrataraha asan
okay
parashuramasya tu chatvarah bhrataraha atah tadapi sadhu kintu
tarayah तार्योः ताराणां
तारयोः ताराणां
सुग्रीवस्य पत्नी नो नो तारस्य
तारायाः
तारायाः पति सुग्रीवः रामचन्द्रस्य मित्रम् आसीत्
तारायाः पतिः तारायाः पतिः वाली
इज़ इट वाली
यस शी वाज़ वालीज़ वाइफ
आई थॉट वाली स्टोल
नो दैट वाज़ रुमा वाली स्टोल शी वाज़ वाइफ दैट वाज़ रुमा तारायाः पतिः वाली
वाली श्रीरामचन्द्रस्य हतवान्
श्रीरामचन्द्रेण हतः
श्रीरामचन्द्रेण हतवान् आसीत्
हतः आसीत् सम्यक्
आसीत्
यस् नेक्स्ट् एनिबडि एल्स् Venkateshwaran.
Maitili Sri Ramachandrasya Patni Asti.
Shashti Vibhaktihi.
Maitili Maitiliyaha.
Maitiliyaha.
Maitiliyaha. Maitalyoho. Maitalyinam.
Maitilinam.
Maitilinam. Maitilinam. Maitilyaha Sri Ramachandrasya Patni Asti.
Maitilyaha Patihi Sri Ramachandraha. Maitilyaha Patihi Sri Ramachandraha.
Vanam. Vanam. Vanasya Vanayoho Vananam. Vane bahuvidam vrikshaha santi.
Bahuvidhaha vrikshaha santi. Vane bahuvidhaha vrikshaha santi. Or vanasya vrikshaha bahuvidhaha santi. Tadeva vakyam shashtim upayujya. Vanasya vrikshaha bahuvidhaha santi. Samyak. षष्ठी विभक्तेः अभ्यासः अद्य कृतः. अग्रे इतोपि षष्ठी विभक्तिः अस्ति. कृदन्तानां योगे षष्ठी. पश्यामः. इतोपि एकः अभ्यासः अस्ति. एतम् अभ्यासं समापयामः. अत्र केवलं पदं वाक्यम् आवश्यकं. यथा छात्रस्य छात्रः लेखनी इत्यस्ति चेत् छात्रस्य लेखनी, छात्रयोः लेखनी, छात्राणां लेखनी इति वचनत्रयम् उपयुज्य पदम्. लक्ष्मी.
बालकस्य शाला. बालकयोः शाला. शालौ. बालकयोः शाला, बालकानां शाला.
सम्यक्.
नार्याः आभरणानि. नार्योः आभरणानि. नारीणाम् आभरणानि.
सम्यक्. गीता.
बालिकाः क्रीडकानि.
क्रीडनकानि.
क्रीडनकानि. बालिकायोः क्रीडनकानि. बालिकानां क्रीडनकानि. मित्रस्य गृहं. मित्रयोः गृहं. मित्राणां गृहं.
सम्यक्. हरमंदर सिंह.
कृषकस्य क्षेत्रम्. कृषकयोः क्षेत्रम्. कृषकानां क्षेत्रम्. नद्याः जलम्. नद्योः जलम्. नदीनां जलम्.
धन्या.
शालायाः स्पर्धा. शालायोः स्पर्धा.
शालयोः.
शालानां. शालायाः शालयोः शालानां स्पर्धा.
शालानां स्पर्धा.
मन्दिरस्य पूजा. मन्दिरयोः पूजा. मन्दिराणां पूजा.
Others. Venkateshwaran.
Sainyasya Ashwaha.
Sainyayoho.
Sainyayoho Ashwaha. Sainyanam Ashwaha. Nagariyaha प्राकारः नगरीयोः प्राकारः नगरीणां प्राकारः
प्राकारः इस् द औटर् वाल् द वाल् एन्सर्क्लिङ्ग् द सिटि सो एनिबडि एल्स् शारदा गोपालन्
पत्रिकायाः वार्ताः पत्रिकयोः वार्ताः पत्रिकाणां वार्ताः
पत्रिकाणां वार्ताः
देशस्य प्रजाः देशयोः प्रजाः देशानां प्रजाः
सम्यक् सो वी विल स्टाप् हियर् सो इन् द नेक्स्ट् क्लास् वी विल् कण्टिन्यू वित् the Shashti Vibhakti with Kridantas. Okay, so we'll take a brief look at some of the Kridantas and then see how Shashti Vibhakti is used with the Kridantas. रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरसमूहो रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहं रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो Yes, Paul, you have a question?
Yes, it's Maithili is the woman belonging to Maithila, which is known as Sita, but Maithila, okay, so which is known as Sita, but how do you get the form Maithili if it should be in Shasti, actually, in a way, and I'm just
Saddhita Pratyaya, like, I mean, you have a lot of these. Mithilayaha Iyam. So there is and then you
got Saddhi. First of all, yes, I wasn't catching that.
Yeah.
But I didn't mean to interrupt you if you were explaining something.
No, it's fine. So it's a Saddhita. So Saddhita always, I mean, mostly comes with Adivriddhi. In many of the cases.
Right.
So.
Right. As I didn't see. But that's the main point then.
Yeah.
Yeah. Okay.